जात श्री रघुनायको दशरथात् मुन्याश्रयस्ताटकां हत्वा रक्षित कौशिक क्रतुवरः कृत्वा प्यहल्यां शुभां भंक्त्वा रुद्रशरासनं जनकजां पाणौ गृहीत्वा ततो जित्वार्धाध्वनि भार्गवं पुनरगात् सीता समेत पुरी दास्यामन्तरया दयारहितया दुर्भेदिता कैकयी श्रीराम प्रथमाभिषेक समये माता प्यया च द्वरौ भर्तारं भरत प्रशस्तु धरणी रामो वनं गच्छतात् इत्याकर्ण्यसजोत्तरं नहि ददौ दुःखेन मूर्छां गतः श्रीरामपितृशासनात् वनम् अगात् सौमित्रिसीतान्वितो गङ्गां प्राप्य जटां निबध्य स गुहः सच्चित्रकूटे वसन्ने कृत्वा तत्र पितृक्रियां स भरतो दत्त्वाभयं दण्डके प्राप्यागस्त्यमुनीश्वरं तदुदितं धृत्वा धनुश्चाक्षयं गत्वा पञ्चवटीम् अगस्त्यवचनात् दत्त्वाभयं मौनिनां चित्त्वा शूर्पणकास्य कर्णयुगलं त्रातुं समस्तान्मुनीने हत्वा तं चकरं सुवर्णहरिणं भित्त्वा तथा वालिनं तारारत्नम् अवैरिराज्यम् अकरोत् सर्वं च सुग्रीवसात् दूतो दाशरथे सलीलम् उदधिं तीर्त्वा हनूमान् महान् दृष्ट्वा अशोकवने स्थितां जनकजां दत्त्वाङ्गुलेर्मुद्रिकाम् अक्षादीनासुरान् निहत्य महतीं लङ्कां च दग्ध्वा पुनः श्रीरामं च समेत्य देवजननी दृष्टा मया इत्यब्रवीत् रामो बद्धपयो नितिः कपिवरैः वीरैर्नलाद्यैर्वृतो लङ्कां प्राप्य सकुम्भकर्णतनुजं हत्वा रणे रावणं सत्यान्यस्य विभीषणं पुनरसौ सीतापतिपुष्पक आरूढः सन् पुरमागतः स भरतः सिंहासनस्थौ बभौ श्रीरामो हयमेधमुख्यमखकृत् सम्यक् प्रजापालयन् कृत्वा राज्यम् अथानुजैश्च सुचिरं भूरिस्वधर्मान्वितौ पुत्रौ भ्रातृसमन्वितौ कुशलवौ संस्थाप्य भूमण्डले सोऽयोध्यापुरवासिभिश्च सरयू स्नातप्रपेदे दिवं श्रीरामस्य कथा सुदातिमधुरान् श्लोकान् इमान् उत्तमान् ये शृण्वन्ति पठन्ति च प्रतिदिनं ते घौघविध्वंसिनः श्रीमन्तो बहुपुत्रपौत्रसहिताः भुक्त्वेव भोगांश्चिरं भोगान्ते तु सदार्चितं सुरगणैः विष्णोर्लभन्ते पदम्।